एकादशोऽध्यायः नराः गुरूणां वाचां बोधेयुः समिद्धः लब्धुं सेवकेन वनं गमनीयम् मरुतः नराणां नयनाभ्यां न दृश्यन्ते नृपेण जगज्जेतव्यं न च नृपं द्विषः जयेयुः गुरुः बोद्धस्य नयनेन जगन्ति पश्यति वृक्षस्य फलानि नारीभिः न लभ्यानि यदि भ्राता अश्वं पाययेत् अश्वः शीघ्रं गच्छेत् बहवः समिद्धः अग्निना दग्धव्याः ग्रामात् गत्वा वने वसेयम् इति गुरोः मतिः।